ॐ सच्चिदानन्दरूपाय कृष्णाय अक्लिष्टकारिणे नमो वेदान्तविद्याय गुरवे बुद्धिसाक्षिणे नितो नित्यानं चेतनं चेतनानं एकः बहुनां यः विदधाति कामं तत्पीठगं यः अनुजायन्ति विप्रियाः तेषां सिद्धिं शाश्वती न हैतहैषम् एतद्विष्णुं परमं पादं यः नित्यद्युक्तः संयुञ्जते न कामान् तेषामसौ सह गोपरूपप्रयत्नात् प्रकाशयेत् आत्मपादं ततीव एतस्यैव याजनं चन्द्रद्वाजगतमोऽहम् आत्मानं विदयत्याः ओङ्करः अन्तः आलिकं मनुम् आवर्तनः सङ्गरहितं अति अपत्याः तद्विष्णुः परमं पादं सदा पश्यन्ति सूरयदिविवः चक्षुः आततं तस्म्यातेतत् नित्यम् अभिसेनितम् अभ्यसेतीतिः तमेकाङ्गोविन्दं सच्चिदानन्दविग्रहं पञ्चपादं वृन्दावने सुरभूवातलवासिनं सततं सामरद्गानोऽहं परमाया स्तुत्वाहातो यो स्वामी ॐ सच्चिदानन्दरूपाय कृष्णाय अक्लिष्टकारिणे नमो वेदान्तविद्याय श्रीगुरवे बुद्धिसाक्षिणे ॐ नमः ॐ नमः विश्वरूपाय विश्वस्थितियन्तहितवे विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः नमो विज्ञानरूपाय परमानन्दरूपिणे कृष्णाय गोपीनाथाय गोविन्दाय नमो नमः नमो कमलनेत्राय नमो कमलमालिने नमो कमलनाभाय कमलापतये नमः नमो पापप्रणाशाय गोवर्धनाय च पुतना जीवितवन्ताय तृणवर्तासुहारिणे निष्कलाय विमोहाय शुद्धाय अशुद्धवैरिणे आदिताय महते श्रीकृष्णाय नमो नमः प्रसीद परमानन्द प्रसीद परमेश्वरः आदिव्याधिभुजङ्गेन दष्टं मां उद्धारो प्रभु श्रीकृष्णो रुक्मिणीकान्तो गोपीजानमनोहरो संसारो सागरमग्नं मां उद्धारो जगद्गुरु केशवो क्लेशहारणो नारायणो जनार्दनो गोविन्दो परमानन्दो मां समद्वारो माधव ॐ सच्चिदानन्दरूपाय कृष्णाय अक्लिष्टकारिणे नमः वेदान्तविद्याय श्रीगुरवे बुद्धिसाक्षिणे भक्तिवश्य भाजनं ततिह आवृत्रोपाधिनैराश्य नैवमस्मि न कल्पं येदं येतदवैष्कलं कृष्णं सन्तः विप्राः बहुधा जयन्ति गोविन्दं सन्तं बहुधारसन्ति गोपीजानवल्लभभुवनानि दद्वेष्वा आश्रित जगत ये जात सुतः भुवनानि ततीश श्लोकं प्रीति वादवदाय कृष्णाय युगं गोविन्दाय इति गोपीजानवल्लभाय बृहद् घनं श्यामं तनुं तदपूच्छ एतः यागोति तस्य स्तिमं शूनन्यः गति स्यादिति ततः विशुद्धो विमलं विशुकम् अशीषलुकाभिनीरतं संज्ञां सदयत्पादं पदं पञ्चपादं तथैव सह वासुदेव न यतन्यातस्ते सत्पुण्डरीकनयनं मेघामं वैद्युतीमाम्बरं द्विभुजं ज्ञानमुद्राढ्यः वनमाली एनं ईश्वरं सकलं परं ब्रह्म एतद् यदाय तिरसति भाजति सः अमृत भवति सः अमृतः भवति इति ॐ सच्चिदानन्दरूपाय कृष्णाय क्लिष्टकारिणे नमः वेदान्तो वेदाय श्रीगुरवे बुद्धिसाक्षीणे वसुदेवपरावेदः वसुदेवपरा सखाः वसुदेवपरा योगा वसुदेवपरा क्रियाः वसुदेवपरं ज्ञानं वसुदेवपरं तपः वसुदेवपरो धर्मः वसुदेवपरा गतिः यस्य अभवायेभिः समस्तानिय कल्पितः लोकविस्तरः तद्वै भागवतरूपं विशुद्धं सत्यः ऊर्जितम् यस्य पश्यन्ति आदुरूपम् आधव्यः चक्षुषा सहस्रापादुर्भुजम् अनद्भुतम् सहस्रामूर्धः श्रवणाक्षी नासिकम् सहस्रामौलीयामर कुन्तलोल्यास मुमुक्षवो घोररूपम् जित्वाः भूतपतिनतः नारायणकलः शान्तः भजन्ति अनासूयैव ॐ सच्चिदानन्दरूपाय कृष्णाय अक्लिष्टकारिणे नमः वेदान्तवेदाय श्रीगुरवे बुद्धिसाक्षीणे ॐ नमः श्रीकृष्णाय वासुदेवाय श्रीविष्णु नमः ॐ नमः श्रीकृष्णाय वासुदेवं श्रीविष्णु नमः ॐ नमः श्रीकृष्णाय वासुदेवं नमः श्रीविष्णु नमः